इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। केरल स्थानीय निकाय निर्वाचने विपक्षी दलेन यूनाइटेड डेमोक्रेटिक फ्रंट सत्तारूढ़ डेमोक्रेटिक फ्रंट च बहुषु जनपदेषु अग्रे वर्तेते। भाजपेति दलस्य नेतृत्वयुतेन एनडीए पक्षेण तिरुवनन्तपुरम नगर निगमे महत्वपूर्णोपलब्धि समर्जिता। पश्चिमबंगाल आरक्षिबलेन अव्यवस्था कारणात् सतादृ दत्ता इत्यमुं निगडितम्। राष्ट्रीय राजधानी क्षेत्रे दिल्ल्यां वायुगुणवत्ता प्रबंधन आयोगेन ग्रैप इति तृतीय चरणं समारब्धम्। अपि च अमेरिकी राष्ट्रपतेः डोनाल्ड ट्रम्पस्य थाईलैंड कम्बोडिया देशयोर्मध्ये संघर्ष विरामे शान्ति सन्धारणानन्तरमपि तत्रत्य सीमायां संघर्षः प्रचलति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य केरल मतदातृभ्यः स्वीय सन्तोष प्रकटितः यत्ते केरल स्थानीय निकाय निर्वाचनेषु एनडीए प्रत्याशिनां कृते स्वीय मतानि प्रदत्तवन्तः। प्रधानमन्त्रिणा नरेन्द्र मोदिना सामाजिकान्तर्जालीये सन्देशे भणितं यत् तदीय दलं तिरुवनन्तपुरम निगम विकासाय कृतसंकल्पः अस्ति। श्रीमोदिना तत्र भारतीय जनता पार्टीति दलस्य कार्यकर्तृभ्यः तेषां कठिन परिश्रमाय धन्यवादोऽपि प्रकटितः। पश्चिमबंगाल आरक्षिबलेन सतादृदत्ता इत्यमुं निगडितम्। इत्येषः तत्र साल्ट लेक क्रीडा प्रांगणे आयोजकः वर्तते। होराद्वयात्मकं परिप्रेक्ष्यानन्तरं साल्ट लेक भारती क्रीडांगणे बहुसंख्यायां प्रशंसकाः प्रदर्शनं कृतवन्तः। आरक्षिमहानिदेशकेन जावेद शमीम इत्यनेन भणितं यत् प्रांगण प्रदर्शनस्य प्राथमिकान्वेषणं प्रचलति। तेन प्रोक्तं यत् स्थितिः अधुना नियन्त्रणे अस्ति। तत्रत्य राज्यपालेन डॉ सीवी आनंद बोसेन निर्देशः प्रदत्तः यत् पश्चिमबंगाल प्रशासनं युवाभारती क्रीडांगणे आयोजक कर्तारं प्रायोजक कर्तृणां च निगडनं करिष्यति। कोलकाता नगरे अर्जेंटीना देशस्य फुटबॉल क्रीडकस्य लियोनेल मेसी इत्यस्य कार्यक्रमावधौ टीएमसी दलस्य नेतृत्वे पश्चिम बंगस्य सर्वकारस्य कथितेन कुप्रबंधनेन जनाः कुपिताः इति भाजपेति दलेन अद्य आरोपितम्। नवदिल्ल्यां वार्ताहर सम्मेलनं संबोधयन् भाजपेति दलस्य सांसदः प्रवक्ता च डॉ सुधांशु त्रिवेदी एतत् सम्पूर्ण देशस्य कृते लज्जास्पदं क्षणम् इति उक्तवान्। सः आरोपितवान् यत् एतादृशाः घटनाः कर्णाटक तमिलनाडु सदृशेषु एनडीए अशासित राज्येषु अपि अभवन्। घटनया दुर्बला विधि व्यवस्थायाः स्थितिः प्रतिबिम्बिता अस्ति, यत्र अधिकारधारिणः मन्यन्ते यत्ते नियमेभ्यः उपरि सन्ति इति।
एक दुखद घटना जो कोलकाता में हुई, जहां पर भारत के लिए बहुत दुखद और पूरे देश के लिए शर्मसार करने वाली घटना हुई, जब अंतर्राष्ट्रीय ख्याति प्राप्त फुटबॉल खिलाड़ी लियोनेल मेसी के कार्यक्रम में सॉल्ट लेक स्टेडियम में जिस प्रकार की अव्यवस्था, भगदड़ और वितंडावाद हुआ, उससे सिर्फ कोलकाता नहीं, पश्चिम बंगाल नहीं, हर भारतीय का सर शर्म से झुक गया।
दिल्ली एनसीआर क्षेत्रे वायुगुणवत्तायाः निम्नस्तरे वायुगुणवत्ता प्रबंधन आयोगेन सीएक्यूएम इत्यनेन तत्क्षणप्रभावेण ग्रेडेड रिस्पॉन्स एक्शन प्लान जीआरएपी इत्यस्य तृतीयं चरणं समारब्धम्। निर्णयोऽयं नगरे वायुगुणवत्ता सूचकांकः गभीर श्रेण्यानन्तरं गृहीतः। एतत् पूर्वमेव प्रवृत्तस्य जीआरएपी इत्यस्य प्रथम द्वितीय चरणयोः अन्तर्गतेषु कार्येषु अतिरिक्तमस्ति। प्रतिबन्धेषु अत्यावश्यक निर्माण विध्वंसादि कार्याणि पूर्णतया प्रतिबन्धितानि भविष्यन्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। दिसम्बर मासे एकाधिक द्विसहस्र तमे वर्षे त्रयोदश दिनांके चतुर्विंशति वर्षाणि पूर्वं संसदि आतंक्याक्रमणम् अभवत्। अद्य सम्पूर्ण राष्ट्रम् आक्रमणे हुतात्म सुरक्षाभटेभ्यः पीडितेभ्यश्च श्रद्धाकुसुमानि समर्पयति। राज्यसभायाः सभापतिः सीपी राधाकृष्णन, प्रधानमन्त्री नरेन्द्र मोदी, केन्द्रीय मन्त्री पीयूष गोयलः, जितेन्द्र सिंहः, किरण रिजिजुः, अर्जुन राममेघवालः च हुतात्मभूतेभ्यः श्रद्धाकुसुमानि समर्पितवन्तः। लोकसभायां विपक्षदलस्य नेतारः, सांसदाः च हुतात्मभूतेभ्यः श्रद्धाञ्जलि समर्पितवन्तः। राष्ट्रपतिः द्रौपदी मुर्मुः प्रोक्तवती यत् राष्ट्रं तेषां नायकानां साहसं, वीरतां, बलिदानञ्च नमति। राष्ट्रपतिना आतंकवादं समूल विनाशाय भारतस्य संकल्पं पुनरुच्चारितवती। प्रधानमन्त्रिणा नरेन्द्रमोदिना भणितं यत् देशः तेषां सर्वोच्च बलिदानं सदैव कृतज्ञतापूर्वकं स्मरति। गृहमन्त्रिणा अमितशाहेन प्रोक्तं यत् राष्ट्रं तेषां बलिदानं सदैव स्मरणं करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी दिसम्बर मासस्य 15-16 दिनांकयोः महामहिम राज्ञः अब्दुल्ला द्वितीयस्य बिन अल हुसैन इत्यस्य आमन्त्रणे जॉर्डन नगरस्य हाशमाइट साम्राज्यस्य द्विदिवसीय यात्रायां भविष्यति। एषा यात्रा प्रधानमन्त्रिणः मोदिनः जॉर्डन देशेन सह प्रथम पूर्ण द्वैपाक्षिक चर्चया द्वयोः देशयोः मध्ये कूटनीतिक सम्बन्धस्य स्थापनायाः 75वें वर्षे भविष्यति, तथा च नवदिल्ली अम्मन देशयोः मध्ये सुस्थिर उच्चस्तरीय राजनैतिक संवादयोः मध्ये भवति। रक्षाप्रमुखः जनरल अनिल चौहानः प्रतिपादितवान् यत् भारतीय रक्षाबलानि सदैव परिष्काराणां, परिवर्तित परिवेशानां कृते सज्जीभूतानि सन्ति। हैदराबादे डिंडिगल स्थिते वायुसेना अकादम्यां 16-200 दलस्य संयुक्त दीक्षांत पथ संचलने जनरल चौहानेन प्रोक्तं यत् ऑपरेशन सिंधूर अधुनापि प्रचलति। भारतीय सैन्य अकादम्यां भव्य पथ संचलने भारतीय सेनायां युवाधिकारिणः समाविष्टाः सन्ति। केन्द्रीय मन्त्रिणा मनसुख मांडविया वर्येण अद्य उत्तराखण्डे पौड़ी जनपदे कण्डोलिया प्रांगणे मध्यप्रदेश खेल समारोह समुद्घाटितः। यूनां संबोधयता तेन भणितं यत् क्रीडा राष्ट्रं सुदृढीकरणाय बहुलाभकरी, महत्वपूर्णा च वर्तते। क्रीडकानां, स्थानीय नागरिकाणां च मध्ये स्वीय उद्गाराः अपि प्रकाशिताः। मांडवियावर्येण प्रोक्तं यत् समारोहः अयं यूनां प्रतिभाम् अग्रे प्रसारणाय एकं भद्रतम मञ्चम् उपस्थापयिष्यति। थाईलैंड कम्बोडिया देशयोः सीमायां युद्धं निरन्तरं प्रचलति। यद्यपि अमेरिकीय राष्ट्रपतेः डोनाल्ड ट्रम्पस्य मध्यस्थतायाः अनन्तरमपि उभौ देशौ युद्धविरामाय सहमतौ आस्ताम्। पूर्वं ट्रम्पः अवदत् यत् थाई कम्बोडिया देशयोः नेतारः एकसप्ताहाभ्यन्तरे सीमायाः प्राणघातक संघर्षस्य अनन्तरं तत्क्षणमेव युद्धविरामसन्धिं नवीकर्तुं पुनः एकवारं सम्मतौ स्तः। मलेशिया देशस्य कुआलालम्पुर नगरे अस्मिन् वर्षे अक्टूबर मासे हस्ताक्षरिते मूल शान्ति सन्धि प्रति प्रत्यागन्तुम् उभौ नेतारौ सम्मतं कृतवान् इत्यपि सः अवोचत्। अन्ते मुख्य वार्ताः पुनः एकवारम्। केरल स्थानीय निकाय निर्वाचने विपक्षीदले युनाइटेड डेमोक्रेटिक फ्रंट, सत्तारूढ डेमोक्रेटिक फ्रंट च बहुषु जनपदेषु अग्रे वर्तेते। भाजपेति दलस्य नेतृत्वयुतेन एनडीए पक्षेण तिरुवनन्तपुरम नगरे नगर निगमे महत्वपूर्णोपलब्धि समर्जिता। पश्चिम बंगाल आरक्षिबलेन अव्यवस्था कारणात् शताद्रु दत्ता इत्यमुं निगडितम्। राष्ट्रीय राजधानी क्षेत्रे दिल्ल्यां वायुगुणवत्ता प्रबंधन आयोगेन ग्रैप इति तृतीय चरणं समारब्धम्। इति वार्ताः।